ईश्वरः परमः कृष्णः सच्चिदानन्द विग्रहः अनादिरादिर्गोविन्दः सर्वकारणकारणं चिन्तामणिप्रकरसद्मसुकल्पवृक्षः लक्षवृतेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं गोविन्दमादिपुरुषं तमहं भजामि वेणुं कनन्तमरविन्ददलायताक्षं बर्हावतं समसितं बुधसुन्दरङ्गं कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि आलोलचन्द्रकलसद्वनमाल्लवंसि रत्नाङ्गदं प्रणयकेलिकलाविलासं क्षेमं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि अङ्गानिजस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरञ्जगन्ति आनन्दचिन्मयसदुज्ज्वलविग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि अद्वैतमच्युतमनादिमनन्तरूपम् आद्यं पुराणपुरुषं नवयौवनं च वेदेषु दुर्लभमदुर्लभमात्मभक्तो गोविन्दमादिपुरुषं तमहं भजामि पन्थस्तु कोटिशतवत्सरसम्प्रगम्य वायोरथापि मनसो मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रपदशिं न विचिन्ततत्ते गोविन्दमादिपुरुषं तमहं भजामि एकपसौ रचयितुं जगदण्डकोटि यच्छक्तिरस्ति जगदण्डचया जदन्त अण्डान्तरस्थपरमानुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि यद्भावभावितो धियो मनुजस्तथैव सम्प्राप्य रूपमहिमासनजानभूषा सुक्तैर्जमेव निगमप्रथितैस्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि आनन्दचिन्मयरसप्रतिभाभिताभिर्ज एव निजरूपतया कलाभिः गोलोको एव निवसत्यखिलात्मभूत गोविन्दमादिपुरुषं तमहं भजामि प्रेमाञ्जनच्छुरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति श्यामसुन्दरमचिन्तगुणस्वरूपं गोविन्दमादिपुरुषं तमहं भजामि रामादिमूर्तिशुकलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किन्तु कृष्णस्वयं समभवत् परमपुमाञ्जो गोविन्दमादिपुरुषं तमहं भजामि यस्य प्रभा प्रभवतो जगदण्डकोटि कोटिशेषवसुधादिविभूतिभिन्नम् तद्ब्रह्मनिष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुषं तमहं भजामि माया हि यस्य जगदण्डशतानि सूते त्रैगुण्णतद्विषयवेदविताय माना सत्यावलम्ब परसत्यविशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहं भजामि आनन्दचिन्मयरसात्मतया मनसु जप्राणिनां प्रतिफलं स्मरतामुपेत्य लीलायितेन भुवनानि जयत्तजस्रं गोविन्दमादिपुरुषं तमहं भजामि गोलोकनाम्नि निजधाम्नि तले च तस्य देवी महेश हरिधाम सुतेषु तेषु ते प्रभावनिचया विहितश्च येन गोविन्दमादिपुरुषं तमहं भजामि सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायेव यस्य भुवनानि बिभर्ति दुर्गा इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहं भजामि क्षीरं यथा दधिविकारविशेषयोगा संजायते न हि ततः पृथगस्ति हेतो जसंभूतामपि तथा समुपैति कार्या गोविन्दमादिपुरुषं तमहं भजामि दीपार्चिरेव हि दशान्तरमभ्युपेत्य दीपायते विवृतहेतु समानधर्मा जस्ताद्रिगेव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि जाकारनर्नवजले भजति स्म योगा निद्रामनन्तजगदण्डसरोमकूपा आधारशक्तिमवलम्ब परां स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि यस्यैकनिःशितकालमथावलम्ब्य जीवन्ति लोम विलजा जगदण्डनाथा विष्णुर्महान् सह्यजस्य कला विशेषो गोविन्दमादिपुरुषं तमहं भजामि भाष्वान्यथस्म शकलेषु निजेषु तेज स्वीयं कियत् प्रकटयत्तपि तद्वदत्र ब्रह्मा ज एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि यत्पादपल्लवजुगं विनिधाय कुम्भ दण्डे प्रणामसमये सगणाधिराज विघ्नान् विहन्तु मलमस्य जगत्त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि अग्निर्महीगगनमम्बुमरुद्विषश्च कालस्तथात्ममनसीति जगत्त्रयानि जस्माद्भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि यच्चक्षुरेश सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेषतेजा यस्याद्गया भ्रमति संभृतकालचक्रो गोविन्दमादिपुरुषं तमहं भजामि धर्मोऽथ पापनिचयश्रुतयस्तपांसि ब्रह्मादिकीटपतगावधयश्च जीवा यस्मत्र मात्र विभव प्रकटप्रभावा गोविंदमादिपुरुषं तमहं भजामि। जस्तीन्द्रगोपमथवीन्द्रमहोस्वकर्मा बन्धानुरूपफलभाजनमातनोति। कर्माणि निर्दहति किन्तु च भक्तिभाजा। गोविन्दमादिपुरुषं तमहं भजामि। जं क्रोधकामसहजप्रणयादिभीति वात्सल्यमोहगुरुगौरवसेव्यभावै सञ्चिन्ततस्य सदृशिं तनुमापुरेते। गोविन्दमादिपुरुषं तमहं भजामि। श्रियकान्ता कान्ता परमपुरुष कल्पतरुभौ द्रुमभूमिश्चिन्तामणि गणमयी तोयम् अमृतम् कथागानं नाट्यं गमनमपि वंशी प्रियसखी। चिदानन्दं ज्योति परमपि तदा सद्यम् अपि च सजत्र क्षीराब्धि स्रवति सुरभिश्च सुमहान् निमेषार्धार्थो वा व्रजति नहि यत्रापि समय। भजे श्वेतद्वीपं तमहमिह गोलकम् इति जं विदन्तस्ते सन्त क्षितिविरलचरा कतिपये। ईश्वरः परमकृष्ण सच्चिदानन्दविग्रह अनादिरादिर्गोविन्दः सर्वकारणकारी।